ॐ वक्रतुण्डमहाकाय सूर्यकोटिः महत्तपः निर्विघ्नं कुरु मे देव सर्वकारेषु सर्वदा सरस्वती नमस्तुभ्यं वरदे कामरूपिणि विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा गुरुब्रह्मा गुरुविष्णुर्गुरुदेव महेश्वरः गुरुसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः नमस्सर्वेभ्यः स्वागतम् अस्माकं पाणिनीयव्याकरणवर्गे विषयः अस्ति अदादिगणे हरन्तदातवः अत्र गतकक्षायां हकारान्तदातूनां तत्र वयं पठितवन्तः तत्र हकारान्तदातवः तत्र द्विप्रकारकाः भवन्ति तत्र दातवः एकमस्ति दकारादि हकारान्तदातु अपि सामान्य हकारान्तदातु इति यथा दुः इति दकारादि हकारान्तदातु अस्ति लिह् इति हकारान्तदातु अस्ति सामान्यनियमः अस्ति होडः दकारस्य दादे धातोः गः इति वयं दृष्टवन्तः अन्ये सामान्यकार्याणि भवन्ति सन्धिकार्याणि एव सन्ति इति वयं दृष्टवन्तः इदानीम् अग्रिमः अस्ति तत्र विशेषदातव धातुषु रुधादि अन्तर्गणः इत्यत्र पञ्चदातवः सन्ति तत्र विशिष्टकार्याणि सन्ति तत्र केचन विशिष्टकार्याणि सन्ति कुत्रचित् इडागमः भवति कुत्रचित् ईडागमः भवति इति अस्ति कुत्रचित् अटागमः भवति पश्यामः तत्र किमपि क्लेशः नास्ति तत्र तत्र साधारणमस्ति पश्यामः तत्र रुधिर् इति तत्र चत्वारदातवः तत्र परिचितदातवः एव तत्र रोदिति इति अपि तत्र स्वपिति श्वासः इति श्वस् धातुः अस्ति श्वासः इति वदामः खलु श्वासः युश्वासनिश्वासः श्वस् धातुस्तेव स्वप् स्वप्ने स्वपिति इति तदपि वयं जानीमः रुद् अपि जानीमः अन् इति एकः कश्चन अस्ति तदपि वयं जानीमः तस्य रूपं जानीमः प्राणः इति अस्ति खलु अन् धातुतः एव प्राणने अन् प्राणने इति प्राणः इति अन् धातुतः एव अस्ति प्राणः प्राणी इति अपि अन् धातुतः एव अतः अन् धातुः प्राणने इति तत्र अपि च अण् इति अन्यदपि अपरधातुः अस्ति अण्यते इति दिवादिगणीयधातुः अस्ति तदपि समान अर्थे भवति अण् इति प्राणने टु ब्रीद् इति अर्थे भवति अपि च अण् इति भुवादिगणे एक कश्चन अन्यः धातुः अस्ति तस्य तादृशं नास्ति शब्दं करोति इत्यर्थे भवति शब्दं करोति इत्यर्थे अण् अणति इति द्विवादिगणे धातु अण्यते इति भवति तत् प्राणने टु ब्रीद् अण्यते इति अनिति इति यः अर्थः अस्ति अनिति अण्यते इति अपि अर्थः समानमेव अस्ति तत्र प्राणः इति तत्र अन् धातुतः अपि भवितुमर्हति अथवा अण् धातुतः अपि भवितुमर्हति प्राणः इति घञ् प्रत्ययेन अन् प्राण इति भवितुमर्हति प्र उपसर्गयुक्त अन् धातुः प्राणः प्राणी प्राणिनि इति तदपि भवति जीवति इत्यर्थः प्राणिनि अहं जीवामि इत्यर्थे प्राणिनि पश्यामः इदानीं तत्र शङ्खप्रसादमहोदय पठति वा आरम्भं करोति वा अदादिगणस्य रुदाद्यन्तर्गणः पञ्चदातवः इति तस्मात् न श्रूयते महोदय
अदादिगणस्य
सम्यक्
अकारान्त
तत्र उपरि अस्ति खलु अदादिगणस्य रुदाद्यन्तर्गत पञ्चदातवः इति अस्ति खलु तत्र
अदादिगणस्य रुदाद्यन्तगणः
सत्यम् अदादिगणस्य रुदाद्यन्तर्गणः इति अस्ति रुदादिगणः अदादि रुदादि
रुधिर् अन्न पञ्चधातु
आम् न श्रूयते महोदय मध्ये मध्ये भग्नः भवति कण्ठः
इदमेव आचार्य
हा इदानीं श्रूयते आम्
तर्गणः पञ्चधातवः
न श्रूयते महोदय श्रोतुं शक् अस्तु इदानीं श्रूयते मध्ये मध्ये किञ्चित् भग्नः भवति प्रायः
भवतः
आमां तत्र बेण्ड्विड्त् प्रायः न्यूना अस्ति इति कृत्वा इदानीं
रुधिर् अश्रुविमोचने रुद् रोदिति अन प्राणने अन् अनिति जिष्वप् सेये स्वप् स्वपिति स्वस प्राणने स्वस् स्वसिति जट्ठ भट्ट हसनयोः जक्ष व्यक्तिति रुदादिभ्यः सार्वधातुके.
अत्र सर्वत्र पश्यतु तत्र रुदुधातुः अस्ति रोद् इति भवति तत्र वयं जानीमः तत्र उपधायां गुणः भवति इति रोद् इति तत्र इडागमः अस्ति अनिति अनिति स्वपिति स्वपिति श्वसिति श्वसिति जक्षिति जक्ष भक्षणे यत् अद् धातु अद् इति जक्ष जक्षिति इति अथवा अत्ति इति समानमेव अद् धातोः भक्षणे इति खलु तत् समानरूपम् अस्ति जक्षिति समानार्थकः अस्ति हसति अपि अर्थः अस्ति जक्षति जक्षिति इति तद् जक्षिति सर्वत्र इडागमः अस्ति केन सूत्रेण भवति इति अग्रे दत्तमस्ति पठतु.
रुदादिभ्यः सार्वधातुके सप्तमाध्याये द्वितीयपादे षट्सप्ततिः तमसूत्रं रुदादिगणे पठितेभ्यः धातुभ्यः वलादेः सार्वधातुकस्य इडागमो भवति. रुदादिगणे पठितेभ्यः धातुभ्यः वलादेः सार्वधातुकस्य इडागमो भवति. वल् प्रत्याहारः आदौ यस्य सः वलादिः. वल् प्रत्याहारस्य अन्तर्गणेषु वर्णेषु तिङ्प्रत्ययानाम् आदौ तथ द मा व सः एते एव भवन्ति. रुदादिभ्यः पञ्चम्यन्तं सार्वधातुके सप्तम्यन्तं द्विपदमिदं सूत्रम्. आर्तधातुकस्य इड् वलादेः इत्यस्मात् इड् वलादेः इत्यनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं रुदादिभ्यः अङ्गेभ्यः इट् वलादौ सार्वधातुके.
अत्र कुत्र भवति वलाद् इत्युक्ते तत्र के आगच्छन्ति तत्र सर्वे हल् वर्णः खलु य इति हल् सर्वे हल् वर्णः भवन्ति यकारं विहाय खलु. तर्हि तत्र प्रथम एकम् अन्ति तदेव तत्रैव न गुणः तत्र किमस्ति इडागमः न भवति तत्र सर्वे तीतः अन्ति अन्तितः न भवति सीतः त मी वस्मस् इति तत्र सर्वत्र भवति. तर्हि तत्र एकमेव एकस्मिन् स्थले एव तत्र इडागमः न भवति तत्र बहुवचने प्रथमपुरुषे बहुवचने तत्र न भवति खलु. अपि च तत्र यकारादि अस्ति चेत् न भवति यकारादि अस्ति चेत् तत्र प्रायः तत्र कुत्र भवति यकारादिप्रत्ययः यातां या युः खलु तत्र विधिलिङ्गलकारे न भवितुमर्हति अन्यत्र भवितुमर्हति खलु. विधिलिङ्गलकारे यकार अस्ति अतः यकारादिप्रत्ययः अस्ति अतः न भवति. अग्रे
अत्र प्रश्नः उदेति यत् अयम् इट् कस्य आगमः. रुदादिभ्यः सार्वधातुके इत्यनेन रुदादिभ्यः अङ्गेभ्यः इट् वलादौ सार्वधातुके. अस्मिन् सूत्रे तस्माद् इति उत्तरस्य इत्यस्य बलेन अयम् इडागमः अग्रे स्थितस्य वलादि सार्वधातुकप्रत्ययस्य आगमः स्यात्. तस्मिन् इति निर्दिष्टे पूर्वस्य इत्यस्य बलेन इडागमः पूर्वं स्थितस्य रुदादिगणीयधातोः आगमः. सूचनाद्वयमपि परस्परविरुद्धं. षष्टिविभक्त्यन्तपदं नास्ति यस्य आधारेण कस्य आगमः इति स्पष्टं स्यात्. अस्यां दशायाम् उभयनिर्देशे पञ्चमी निर्देशः बलीयान् इति परिभाषया द्वयोः निर्देशयोर्मध्ये पञ्चमी निर्देशः बलीयान् इत्युक्तौ बलादि सार्वधातुक प्रत्ययस्य एव आगमः नातु रुदादि गणीय धातोः फलितार्थः एवं यत् सप्तम्यन्तं पदं स्थानिनं निदर्शयति अनेन रुदादिभ्यः सार्वधातुके इत्यस्य अनुवृत्तिसहितसूत्रे बलादौ सार्वधातुके सप्तम्यन्तम् अतः तस्य एव इडागमः भवेत्
किं दत्तमस्ति अत्र
अत्र प्रश्न उदेति इडागमः कस्य आगमः प्रत्ययस्य वा धातोः वा इति द्वे सूत्रे अत्र आगच्छति तस्मात् इति उत्तरस्य इत्यस्य बलेन इडागमः बलादिप्रत्ययस्य
तस्मात् पञ्चमी प्रत्ययस्य खलु पञ्चमी अस्ति चेत् तस्मादि सूत्रे इति भवति अपि च षष्ठी अस्ति चेत् द्वितीयस्थाने भवति परन्तु षष्ठी नास्ति सप्तमी सामान्य सप्तमी अस्ति सप्त तस्मिन् निर्दिष्ट पूर्वस्य तेन सप्तमी इडागमः भवति इडागमः तत्र बलादौ सार्वधातुके इति अत्र दत्तमस्ति परन्तु रुदादिभ्यः अङ्गेभ्यः इति पञ्चमी अस्ति तत्र अतः तत्र उभयनिर्देशे वयं जानीमः पञ्चमी बलियान् इति सारि उभयनि पञ्चमी बलियान् इत्युक्ते पञ्चमी बलियः सति सप्तम्यां सप्तम्यां यदस्ति तस्य एव इडागमः भवति इति अस्ति तत्र वयं दृष्टवन्तः पूर्वमेव अस्तु केवलं तत्र पुनःस्मरणम् अस्ति अस्तु अग्रे महोदय
यथा रुद् योगति रोद् योगति लघुपथस्य गुणं भवति रोद् योग ई योगति इडागमः सार्वधातुक वलादिप्रत्ययस्य पूर्वम् आगच्छति रोदिति इति अन्तिमरूपम्
आम् महोदय अग्रे
अनिति स्वप् योगति स्वप् योग ई योगति स्वपिति स्वस्थ योगति स्वस्य योग ई योगति स्वसिति जक्ष योगति जक्ष योग ई योगति जक्षिति सर्वे
एकनिमिष
इडागमः आगच्छति
हा इडागमः अस्ति धन्यवादः महोदय एकनिमिष
धन्यवादः
धन्यवादः महोदय क्षम्यतां तत्र सर्वत्र इडागमः भवति तत्र कस्य भवति इत्युक्ते तत्र प्रत्ययस्य इडागमः सामान्य सर्वत्र तादृश एव खलु अत्र सूत्रे पञ्चमी सप्तमी अस्ति इति कृत्वा तत्र परिभाषासूत्रद्वयम् आगत्य कार्यं करोति तत्र क्षम्यतां परिभाषाद्वयमस्ति तदा उभयनिर्देशे पञ्चमी बलियान् इति परिभाषा अस्ति अनेन वयं ज्ञातुं शक्नुमः इति प्रत्ययस्य आगमः इडागमः इति धन्यवादः उमा भगिनी अग्रे लङि
लङि विकल्पेन अरोधीत् अरोदत् रुदश्च पञ्चभ्यः रुदादिभ्यः धातुभ्यः हलादेः पितः अपृक्तस्य सार्वधातुकस्य ईडागमो भवति रुदादिभ्यः सार्वधातुके इत्यस्य अपवादः उभयनिर्देशे पञ्चमीनिर्देशः बलीयान् इति परिभाषया सप्तम्यन्तस्य आगमः रुदः पञ्चम्यन्तं पञ्चभ्यः पञ्चम्यन्तं च अव्ययं त्रिपदमिदं सूत्रम् नाभ्यस्तस्याचि पिति सार्वधातुके इत्यस्मात् पिति सार्वधातुके इत्यनयोः अनुवृत्तिः अतो वृद्धिर्लुकि हलि इत्यस्मात् हलि इत्यस्य अनुवृत्तिः गुणोपृक्ते इत्यस्मात् अपृक्ते इत्यस्य अनुवृत्तिः ब्रुव ईट् इत्यस्मात् ईट् इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् रुदश्च पञ्चभ्यः अङ्गेभ्यः ईट् हलि पिति अपृत्ते सार्वधातुके यथा अरुद् योगे तु रुदश्च पञ्जभ्यः अरुद् योगे ईट् योगे तु अरुद् योगे ईत् पुगन्तलघुपदस्य च इति अरोद् योगे ईत् अरोदीत् अत्र ईडागमस्य विधानेन अधुना प्रत्ययः ईत् नाम द्विवर्णकः अतः अपृक्तसंज्ञा नास्ति तदभावे हल्याभ्यो दीर्घास्तुतिस्य पृक्तं हल् इत्यस्य प्रसक्तिर्नास्ति अरुद् योगे स् अरोदि अरोधीः अपि तथा
तत्र किम् तत्र अपृक्त तत्र इत्युक्ते लङ्लकारे एव भवति तत्र लङ्लकारे ईडागमः पञ्चभ इत्युक्ते एते एव धातवः खलु तत्र किमस्ति अत्र रुदादिभ्यः सर्वधातुके इति यत्र ईडागमः अस्ति तेषाम् एव ईडागमः भवति अपृक्ते अपृक्त एकाल्पत्य अस्ति चेत् ईडागमः भवति इति अस्ति तत्र अतः तत्र रुद् अन् स्वप् श्वस् जक्ष् एते पञ्चधातवः तेषाम् एव ईटागः भवति इत्युक्ते प्रथममध्यमपुरुषस्य ईटागमः भवति इति अस्ति तत्र अपृक्त एकाल्पत्यः अस्ति खलु अतः वयं जानीमः तत्र स् अपि त् इति भवति इति अपृक्त एकाल्पत्यः इति अस्तु धन्यवादः भगिनि अग्रे इदानीम् अटागमः पश्यामः निरञ्जन भगिनि अग्रे
श्रूयते वा महोदय पञ्चभ्यः रुदादिभ्यः धातुभ्यः हलादेः पितः सार्वधातुकस्य अपृक्तस्य अडागमो भवति गार्ग्यगालवयोः मतेन गार्ग्यश्च गालवश्च गार्ग्यगालवौ तयोः गार्ग्यगालवयोः उभयनिर्देशे पञ्चमी निर्देशः बल्यान् इति परिभाषया सप्तम्यन्तस्य आगमः अट् प्रथमान्तं गार्ग्यगालवयोः षष्ठ्यन्तं द्विपदम् इदं सूत्रम् नाभ्यस्य पिति सार्वधातुके इत्यस्मात् पिति सार्वधातुके इत्यनयोः अनुवृत्तिः उतो वृद्धिर्लुके हलि इत्यस्मात् हलि इत्यस्य निवृत्तिः गुणो अपृक्ते इत्यस्मात् अपृक्ते इत्यस्य निवृत्तिः रुदश्च पञ्चभ्यः इत्यस्मात् रुदश्च पञ्चभ्यः इत्यनयोः अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं गार्ग्यगालवयोः रुदश्च पञ्चभ्यः अङ्गेभ्यः अट् हलि पिति अपृक्ते सार्वधातुके अट् गार्ग्यगालवयोः इत्यनेन रुदादिभ्यः धातुभ्यः लङ्लकारे प्रत्ययः अस्ति तस्य अडागमः भवति
ऋषीणां नाम भवति तदा विकल्पेन इति मन्तव्यमस्ति तत्र रूपद्वयं भवति अत्र अधः दत्तमस्ति रूपद्वयं भवति यदा अटागमात् ईटागमः भवति प्रत्ययस्य तदा तत्र अपृक्तत्वं तत्र अपगच्छति खलु अतः तत्र लोपः अपि न भवति अपृक्त एकाल् प्रत्ययः अस्ति इदानीम् ईटागमः भवति अथवा आगमः भवति ईटागमः अथवा अटागमः भवति चेत् तत्र अपृक्तत्वं न अपगच्छति अतः तत्र तत्र लोपः न भवति हल्गा भवति इति एव अस्ति अग्रे पठ दत्तं
यथा अरुद्योगत पुगन्तलघुपदस्य च इत्यनेन श्रूयते वा
श्रूयते श्रूयते भगिनि
पुगन्तलघुपदस्य च इत्यनेन अरोद् योगत अड्गार्ग्यगालवयोः इत्यनेन अरोद् योग अयोगत अरोदत् अरोद् योगस अरोद् योग अयोगस अरोदः अपि तथा रूपद्वय भवति तकार सकार अस्ति तत्र त प्रत्यये परे स प्रत्यये परे रूपाणि अधः दर्श सन्ति रुद् योग अरोद् अरोदित् अरोदत् अरोदीः अरोदः तकार प्रथमपुरुषे क्वचने मध्यमपुरुषे स्वप्
ईटागमः भवति खलु तत्र ईटागम एकमस्ति ईटागम केन सिद्धः भवति ऋतश्च पञ्चभ्यः अपि च अटागमः तेषाम् एव ऋतश्च पञ्चभ्यः इति अनुवृत्तिसहितसूत्रमस्ति 98 99 अस्ति अष्टनवतिः नवनवतिः सूत्रमस्ति खलु अग्रिमसूत्रमस्ति अतः विकल्पेन भवति
अस्वप् अस्वपीत् अस्वपत् अस्वपीः अस्वपः
एकनिमिष
एकनिमिष
कः तत्र व्याकरणम् एकनिमिष अस्तु तत्र जक्ष अजक्ष इति अस्ति अस्तु अग्रे किमस्ति अस्तु किं कार्यमस्ति अदत् इदानीं रुद् दातु अग्रे पठतु
श्वस् अश्वस् अश्वसीत् अश्वसत् अश्वसीः अश्वसः अन् आन् आनीत् आनत् आनीः आनः सप्तपरे जक्ष अजक्ष तप्रत्ययपरे अजक्षीत् अजक्षत् सप्रत्ययपरे अजक्षीः अजक्षः दकारान्तरुद्ध रुद्धातुः परस्मैपदि अश्रुविमोचने अङ्गकार्यं हलादिपित्सु उपधायां लघु इकः गुणः रुद्योगति उगन्तलघुपदस्य चैतन्ये रोद्योगति इडागमः रोदिति अजादिपित्सु उपधायां लघु इकः गुणः रुद्योग आनी उगन्धलघुपदस्य च रोद्योग आनी रोदानि हलादि अपि सुप्नीति च गुणनिषेधः रुद्योगतः इडागमः रुदितः अजादि अपि सुति च इत्यनेन गुणनिषेधः रुद्योगान्ति वर्णमेलनमेव रुदन्ति सन्धिकार्यं तत्र बलादिप्रत्ययेषु इडागमः भवति अतः हल्सन्धेः अवसरो न कुत्रापि भवति अग्रे चतुर्शूलकारेषु दुर्गन्धरूपाणि वक्तव्यानि उपरि दत्तानां नियमानाम् आधारेण रूपचिन्तनं करोतु
धन्यवादः इदानीं तत्र शङ्करप्रसाद् महोदय लट्टि करोति वा
धातुः लट्लकारस्य प्रथमपुरुष तः अन्ति ऋतुयोग पि उगन्तलघुपदस्य सूत्रेण रोद्योगति इडागमः रोद् योग ई योगति रोदिति
तत्र रोदिति तत्र किं भवति तत्र रोदिति इति तत्र केन सूत्र इडागमः ऋदश्च पञ्चभ्यः इत्यनेन इडागमः अस्ति अग्रे
सः रुद् योगतः अत्र
स्तः इति कीदृशः रुदादिपे क्षम्यतां रुदश्च पञ्चभ्यः इत्यनेन तत्र ईटागमः रुदादिभ्यः सार्वधातुके इति तत्र ईटागमः रुदादिपे सार्वधातुके रुदश्च नास्ति क्षम्यतां रुदश्चपि अट् गार्गलयोः इति तत्र ईट् अथवा अटागमः
रुदादिभ्यः सार्वधातुके
सम्यक्
सूत्रेण ईडागमः ऋगस्य पञ्चभ्यः लङ्लकारे एव
आमां सत्यं तत्र ऋगस्य पञ्चभ्यः किं करोति ईटागम करोति खलु
ईडागमः
न तु ईटागम
ईडागमः अथवा अड्डे गार्ग्यगालवयोः इति सूत्रेण अडागमः
अडागमः अत्र किम् अस्ति तः इति अस्ति हृद्योगतः
आम् अत्र हृद्योगतः हला अजतः हलादि अपित् हलादि अपित् चेत् निति च गुणनिषेधः अस्ति रोद् न भवति इडागमः भवति निति उदितः उत् इतः उदितः बहुवचने रुद् योग अन्ति वर्णमेलनमेव रुदन्ति
किमर्थं न भवति इडागमः
निति च
न इडागमः किमर्थं न भवति इडागमः
इडागमः अजादि अजादि
अस्ति सत्यं सत्यं वलादि नास्ति अतः सम्यक्
अजादि रुदन्ति मध्यमपुरुषे रुद् योग अस्ति हलादि पित् अस्ति नकारस्य परे सकारः अस्ति
प्रथमकार्यं किमस्ति अङ्गकार्यमस्ति खलु तत्र तृतीयपादे अस्ति पुगन्तलघुबद्धस्य इति प्रथमकार्यं खलु अङ्गकार्यमस्ति
आमां रोद् रोद् रोद्योगसि
इदानीम्
इदानीं
सि इति कीदृशपदे अस्ति
तापरे तापरे सकारस्य
न सकारस्य सकारवलादि वा अजादि वा इति तत्र
वलादि एव
तत्र विशेषकार्यमस्ति खलु वयं दृष्टवन्तः खलु पञ्चसु स्थलेषु पञ्चसु धातुषु विशेषकार्याणि भवन्ति खलु किमस्ति तत्र यथा अरो रोदिति इति उक्तमस्ति खलु तत्र इडागमः खलु
इडागमः एव रुदादित्यः सार्वधातुके रुदादिगणे पठितेभ्यः धातुभ्यः वलादेः सार्वधातुकस्य इडागमो भवति
सकार खलु
आमां रोद् योगायि योगसि रोदिसि
तर्हि रोदिसि ईसि इति अस्ति इदानीं किं भवति सकार कीदृशः अस्ति प्रत्ययसकारः
आम् आदेशप्रत्ययो रोदिषि
सम्यक् रोदिषि
अनन्तरं रुद् योगतः अपित् अस्ति अपित्सु गुणनिषेधः
तकार कीदृशमध्ये अस्ति सर्वत्र तदेव अस्ति इडागमचिन्तनमस्ति खलु तत्र तेषु तत्र पञ्चस्थलेषु इडागमः पञ्चस्थासु इडागमः खलु तदेव कार्यं किमपि नास्ति
रोद् रोदितः रुदितः
अत्र रोद् न भवति
रुदितः
रुदितः रुदितः
रुदितः तथा एव रुदित बहुवचने रुदित उत्तमपुरुषे उत्तमपुरुष एकवचने रुद् योगामि अत्र छल् नास्ति अनुनासिकवर्णः
तत्र न तत्र इडागमः कदा भवति
इडागमः सार्वधातुकवलादिप्रत्यये एव
वल् इत्युक्ते के वर्णः सर्वे हल् वर्णः आगच्छति यकारं विहाय खलु न यकारं विहाय हयवर ट्लन् ञमगणन जबै गडदस् जब गडदस् कप चड चड तौ कपै सर् हल् सर्वाणि आगच्छन्ति खलु वलादि खलु हय
अत्र इडागमः भवति रुद् योग इडागमः मि रुद्धि मि
मि रुदु योग मि इति इदानीं तत्र अङ्गकार्यमस्ति मि पित् इति कृत्वा रोद् इति कल्ति रोद् योग मि इदानीम् इडागमः कस्य इडागमः प्रत्यस्य इडागमः
रोदिमि
अस्ति रोदिमि तदेव
अस्ति
अपित्
अस्ति रुद्वः रुद्मः
तत्र अपित् अस्ति, तदस्ति, गुणः नास्ति, तर्हि इडागमः भवति वा? केवलम् आजादिप्रत्य अस्ति चेत् इडागमः भवति, वलादिकं यकारादि अथवा आजादि अस्ति चेत्.
इदानीं
सम्यक् तदेव अस्ति. अत्र अस्माकं तत्र भ्रमः भवति, जल् जल् इति, तत्र जल् हल हल् सन्धौ एव. तद् इडागमस्य विषये तिङन्तप्रत्यये वल् इति भवति, तत् कृत् कृत् प्रत्ययनं न इट् वशीकृति इति, अत्र वश् प्रत्ययः न भवति, तत्र वश् न भवति, तत्र प्रथम द्वितीय इति भवति, अत्र तत्र अस्ति, अत्र नास्ति, तादृशं नास्ति. सर्वे सर्वा सर्वे हल् वर्णाः तत्र भवन्ति यकारं विहाय, इडागमः भवति एव. अतः एकवारं पुनः वदतु, रोदिति
रोदिति रोदिति रुत्तः
बालकः रोदिति
रुदितः
बालकौ रुदितः
बालकौ रुदितः बालकाः रुदन्ति.
त्वं
त्वं रोदिसि आवां
युवां युवां खलु
युवां 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 रुदितः रुदितः यूयं रुदित अहं रोदिमि आवां रुदिवः वयं रुदिमः.
सम्यक् उत्तमं धन्यवादः
धन्यवादः.
इदानीम् उमा भगिनी तत्र लोट् लकारे
ताम् अन्तु अस्ति, रुद् योगे इडागमः भवति, अत्र रुदादिभ्यः सार्वधातुके इति सूत्रेण इडागमः भवति, अतः इतु इति प्रत्ययः रुद् योगे इतु पित् अस्ति, अतः रोद् योगे इतु रोदितु
रोदितु इति. अत्र एकमस्ति गुणः प्रथमं भवति, परसूत्रमस्ति किल, तृतीयपादे अस्ति, इडागमः द्वितीयपादे अस्ति, अतः तत्र प्रथमं गुणकार्यं कर्तुं शक्यते, अनन्तरम् इडागमः कर्तुं शक्यते, किमपि तत्र क्लेशः नास्ति. अस्तु,
द्वितीयरूपं तात् अस्ति, तात् अपि अस्ति, अत्र रुद्योगि तात् एव, अत्र गुणकार्यं नास्ति, किन्तु रुदादिभ्यः सार्वधातुके इति, तात् अपि वलादिप्रत्ययः, अतः अत्रापि यित् रुद्योगे रुद् योगे इतात् रुदितात् द्विवचने तु ताम् अस्ति, द्विवचने ताम् अस्ति, वलादि अस्ति, इडागमः भवति, इताम् अस्ति, अपित् गुणकार्यं नास्ति, रुद्योगे इतां रुदिताम् बहुवचने अन्तु अस्ति, रुद्योगे अन्तु वलादि नास्ति, अतः इडागमः नास्ति, रुद्योगे अन्तु अपित् अस्ति, गुणमपि नास्ति, रुदन्तु मध्यमपुरुषे हि तं तो रुद्योगे हि अस्ति, अत्र हि इति तेर्यपिच्च इति सूत्रेण अपित् अस्ति, अतः अपित् अस्ति, अतः गुणकार्यं न भवति, रुद्योगे हि अस्ति, हि हकारः वलादिप्रत्ययः, इडागमः भवति, इः रुद्योगे इः रुदिः,
तत्र हे दिः न भवति, हू जल्प इदानीं तत्र इडागमः भवति, अतः धि न भवति खलु, धि न भवति, अन्यथा भवेत् रुद्योग धि हि इति धि भवेत्, परन्तु इडागमः भवति, इदानीम् अजादि अस्ति, अतः किमस्ति अत्र कः किं सूत्रमस्ति, हू जल्प हे दि इति न भवति. सम्यक्, रुदिः
पुनः ऋतुः समानम् अत्र अपित् अस्ति अतः अपित् अस्ति वलादि अस्ति इतात् रुद् नो गुणकार्यं नास्ति रुद्योगे इतात् रुदितात् तम् अस्ति अत्रापि अपित् अस्ति अतः गुणकार्यं नास्ति रुद्योगे तं वलादि अतः इतं रुद्दितं रुदितं त अस्ति समानं वलादिप्रत्ययः अतः इत भवति अपित् अस्ति गुणकार्यं नास्ति रुद्योगे इत रुदित इदानीम् आनि आव आम सर्वे अजादिप्रत्ययाः वलादि नास्ति अतः इडागमः न भवति किन्तु सर्वे प्रत्ययाः अत्र पित् अस्ति अतः सूत्रेण पित् अस्ति अतः गुणकार्यं भवति रुद्योगे आनि रोद्योगे आनि रोदानि रुद्योगे आव रोद्योगे आव रोदाव रुद्योगे आम इत्यत्र रोद्योगे आम रोदाम
तर्हि तर्हि रोदितु रुदिता वदतु एकवारं रोदितु
रोदितु रुदिता अं रुदन्तु रोदितु रुदितात् रोदितां क्षम्यतां रोदितु रुदितात् रुदितां रुदन्तु रुदिः रुदितात् रुदितं रुदित रोदानि रोदाव रोदाम
सम्यक् उत्तमं धन्यवादः इदानीं भगिनि तत्र लङ्लकारः
गृहं पुरुषेकवचन तकारस्य हलादि पित्तस्य प्रथम अडागमः भवति अरुद् इति रूपं भवति अरुद्योग हलादि पितस्य तत्र सूत्रं रुदस्य पञ्चभ्यः इत्यनेन ईट् आगम भवति अरुद्योग ई योग तत्र अनन्तरं पुबन्त लघुपदस्य चिन्न अरोद् गुण अरोद् योग ई योग त अरोदित् अरोदित् भवति अरोदित् दीत् अन्यरूपमपि भवति अरुद्योग तत्र पुगन्तलघुपदस्य अरोद्योग अट् गार्गकालभयोः इति अट् आगं भवति अरोद्योग अत् अरोदत् अरोदित् अरोदत् द्विवचने अरुद् योगतां हलादि अपि अस्ति तत्र अरुद् योगतां रुदादिभ्यः सार्वधातुक इत्यनेन इट् आगमः भवति अपि अस्ति अरुदिताम्
अत्र किमर्थं न भवति
अत्र प्रयुक्तमस्ति
सम्यक् तदेव अरुदिता सम्यक् इटागमेव सामान्य
बहुवचने अन् अजादि अपि अस्ति तत्र किमपि कार्यं न भवति अरुद्योग अन् अरुदन् भवति मध्यमपुरुषे प्रथम मध्यमपुरुषे एकवचने अरुद्योग तत्र अपि अरुदस्य पञ्चभ्यः इत्यनेन ईटागं भवति अरुद्योग ई योगश्च अपुगन्धलघुपदस्य अरोद्योग ई योगस तत्र अरोदि तत्र सत्सुजोषोरु खर्वस्मितिनेन अरोदीः इति रूपं भवति अन्यरूपमपि भवति अरोद्योगस पुगन्तलघुपदस्य इत्यनेन अरोद्योगस अड् गार्गकालवयोः इत्यनेन अरोद्योग अस् तत्र अपि विसर्गः भवति अरोदः अतः अरोदिः अरोदः इति रूपं भवति उपद्वयं भवति द्विवचने अरुद्योगतं हलादि अपि अस्ति तत्र रुदादिभ्यः सार्वधातुके इत्यनेन इट् आगमः भवति अरोदितं भवति बहुवचने अरोदित इति रूपं भवति
बालकः अरोदित् क्षम्यतां तत्र उत्तमपुरुषः अभवत्
वा उत्तमपुरुषे न अजादिपित् अस्ति अरुद्योग अं पुगन्तलघुपदस्य अरोद्योग अं अरोदम् इति रूपं भवति,
विरागमः न भवति,
न भवति, तत्र अजादि अस्ति.
सम्यक्.
द्विवचने अरुद्योग तत्र रुदादिभ्यः सार्वधातुके वल्लस्यतः अरुदिव भवति, अरुदिव
अरुदिव
भवति, हा गुणा न भवति. तथैव अरुद्योगम तत्र रुदादिभ्यः सार्वधातुके ईटागम अरुदिम अरुदिम इति रूपं भवति.
वाक्यं रचयतु, वाक्यं रचयतु, वाक्यं रचयित्वा करोतु. बालकः अरोदीत्,
बालकः अरोदित् वा अरोदत्, बालकौ अरुदितां, बालकाः अरुदन्.
अनन्तरं
त्वं अरोदिः वा अरोदः, युवाम् अरुदितं, यूयम् अरुदित, अहम् अरोदम्, आवाम् अरुदिव, वयम् अरुदिम. धन्यवादः.
धन्यवादः. तत्र अग्रे इदानीं तत्र शङ्खप्रसाद् महोदय, अग्रे इदानीं तत्र विधिलिङ्गकारः.
विधिलिङ्ग प्रथमपुरुषे यात् यातां युः, त्रीणि अपि यकार प्रत्ययः.
विरागमः भवति वा?
वलादि हय्यवरट् वलादि एव विरागमः भवति.
हय्यवरट् खलु, हय्यवरट् वल् इति आरभ्य खलु, हय इति हकार यकार, हकार अन्ते अस्ति, हकारद्वयमस्ति खलु, हकारः भवति, यकारः भवति वा न भो, हय्य खलु यकारविहाय खलु, वल्
यकारं
हकार यकारं विहाय एव.
वल् प्रत्याहारे नास्ति, अतः वर्णमेलनमेव. हृद्यातां ऋद्युः, याः यातं यात, हृद्याः हृद्यातं हृद्यात, यां याव याम, हृद्यां हृद्याव हृद्याम.
अथ बालकः न रुद्यात्, बालकः न रुद्यात्,
न रुद्यात् बालकौ
ृद्यातां
बालकाः ऋद्युः. भवा त्वं ऋद्याः युवां ऋद्यातं, यूयं ऋद्यातं,
युवां रुद्यातं खलु, युवां
युवां रुद्यातं, यूयं रुद्यात, अहं रुद्याम्, आवां रुद्याव, वयं रुद्याम.
भवान् ताडयति चेत् अहं रुद्याम् इति, अथवा भवान् बस्थयति चेत् अहं रुद्याम् इति, तादृशवाक्यं
भवान्
तादृश, अथवा बालकः शिक्षकः मारयति चेत् बालकः रुद्यात् इति, तत्र तादृश विधिलिङ्गकार्ये
कृतं
तत्र प्रयोगः भवति. रुद्धधातोः बहुत्र भवति खलु अस्माकम्, अतः तदस्ति. उत्तमं, धन्यवादः महोदय. अग्रे इदानीम् अग्रिमः कः अस्ति? अग्रिमः अस्ति रुदत् एकनिमिषः. रुद्धधातुः अभवत्, इदानीं पकारान्त, पकारान्त स्वप् धातुः क्षये इति अस्ति. उमा भगिनि, पकारान्त तदपि समानकार्यमस्ति.
पकारान्तः श्वप् स्वप् परस्मैपदी क्षये अङ्गकार्यम्, उपधायां ह्रस्व अकारः, लघु इक् इति न, अतः गुणकार्यं नास्ति। बलादिप्रत्यये परे इडागमो भवति, अपि च लङ्लकारे अपृक्तसंज्ञकप्रत्ययेषु ईडागमश्च अडागमश्च भवतः। सन्धिकार्यं बलादिप्रत्ययेषु इडागमो भवति, अतः हल् सन्धेः अवसरो न कुत्रापि भवति। इडागमः भवति, अतः इकारः भवति। अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि, उपरि दत्तानां नियमानाम् आधारेण रूपचिन्तनं करोतु। रूपाणि लटि, स्वप् इति धातु अस्ति,
स्वप्योगति,
अत्र ली इत्यस्य किं दत्तमस्ति, निष्विप् इति अस्ति,
तत्र
आदिनीतुदवः इति सूत्रेण ङी इत्यस्य इत्संज्ञा, धात्वादेशः इति सूत्रेण षकारस्य सकारादेशः, अतः स्वप् इति धातु।
सम्यक्,
स्वप् धातु, लटीरूपं तीतः अन्ति, ती पित् अस्ति किन्तु लघु इक् नास्ति, हलन्तधातु अस्ति, लघु इक् नास्ति, अतः गुणस्य प्रसक्तिः नास्ति। स्वप् योगेति रुदादिभ्यः सार्वधातुके इति सूत्रेण इडागमः भवति, स्वप् इति स्वपिति। पुनः स्वप् योगे तः अस्ति, तः अपि वलादिप्रत्ययः, अतः इतः भवति स्वपितः। अन्ति इत्यत्र अन्ति इत्यत्र वलादि नास्ति, इडागमः नास्ति, यतोपि गुणकार्यमपि नास्ति, स्वप् योगे अन्ति, स्वपन्ति। मध्यमपुरुषे सि अस्ति, पित् अस्ति किन्तु गुणकार्यं नास्ति, मृगादि सि इति वलादिप्रत्ययः एव, अतः रुदादिभ्यः सार्वधातुके इति इडागमः भवति। इसि इति प्रत्ययः, स्वप् योगे इसि, स्वपिसि, स्वपिसि, अत्र आदेशप्रत्यय स्वपि आदेशप्रत्ययः इति सूत्रेण शकारः, स्वपिषि। सः अस्ति वलादिप्रत्ययः, गुणकार्यं नास्ति, इडागमः भवति, स्वप् योगे इतः स्वपितः। त वलादिप्रत्ययः, गुणकार्यं नास्ति, स्वप् योगे इथ स्वपितः। मी वः मह अस्ति, मी इति पित् अस्ति किन्तु गुणं न भवितुम् अर्हति। मी अपि मकारः अपि वलादिप्रत्ययः एव, अतः इमि भवति, स्वप् योगे इमि, स्वपिमि। स्वप् योगे वः वलादि इव, स्वप् योगे इव स्वपि वः। मह अस्ति वलादि, इमः स्वपि मह, स्वपन्ति, स्वपिषि, स्वपितः, स्वपिथ, स्वपिमि, स्वपि वः, स्वपिमः।
लोट्लकारे प्रथमपुरुषे तु हलादिपितस्य, स्वप्योगः तु तत्र किमपि गुणकार्यं न भवति, रुदादिभ्यः सार्वधातुके इत्यनेन इड् आगमः भवति, स्वप्योग योग तु स्वपि तु भवति। अनन्तरं तात् स्वप्योग तात् हलादि अपि अस्ति, तत्रापि रुदादिभ्यः सार्वधातुके इत्यनेन इट् आगमः, स्वप्योग योग तात् स्वपि तात् भवति। तथैव स्वप्योग तां द्विवचने हलादि अपि अस्ति, रुदादिभ्यः सार्वधातुके इत्यनेन इट् आगमः, स्वपि तां भवति। बहुवचने अन्तु अजादि अपि अस्ति, स्वप्योग अन्तु किमपि कार्यं न भवति, वर्णमेलनं स्वपन्तु भवति। मध्यमपुरुषे एकवचने स्वप्योग हि लादि अपि अस्ति, रुदादिभ्यः सार्वधत्ते रुद् सोरि स्वप्योग ये योग हि स्वपिः स्वपिः भवति स्वप्योगतात् हलादि अपि रुदादिभ्यः सार्वधत्केतन स्वप्योग इयोगतात् स्वपितात् द्विवचने स्वप्योग इयोगतं हलादि अपि तस्य स्वपितं तथैव बहुवचने स्वप्योग इयोगत रुदादिभ्यः सार्वधत्केतन भवति स्वपित भवति उत्तमपुरुषे आनि अजादिपितस्य स्वप्योग आनि परन्तु तत्र लघुपदं किमपि नास्ति तत्र गुणकारणं भवति स्वपानि भवति स्वपानि स्वपाव स्वपाम भवति
शकवसमहोदय तत्र लङ्लकारे
लङ्लकारे प्रथमपुरुष ताम् अन्न रुद्धधातुः स्वप्धातुः हलादिवर्णः लुङ् लङ् लृङ् षु अडुत्तात्तः इति सूत्रेण अडागमः अस्वप् इति भवति अस्वप् योगात् रुदश्च पञ्चभ्यः इति सूत्रेण हलादि वित् सार्वधातुकप्रत्यय परे अपृक्तकस्य अपि अपृक्तसंज्ञकवर्णः अपि अस्ति अतः अडागमः भवति अस्वप् योग ईडागमः अस्वप् योग ईट् योग त् ईट् ईडागमे तकारस्य अलञ्चम् इति सूत्रेण लोपः भवति ई एव अवशिष्यते अस्व पीत् अस्वपीत् अस्वपीत् अपृक्तसंज्ञकः एकवर्णः नास्ति द्वे वर्णः अस्ति अतः अपृक्तसंज्ञकवर्णस्य लोपः न भवति सूत्रेण अन्यद्रूपमस्ति अड् गार्ग्य गालवयोः इति धातुभ्यः हलादि पित् अस्ति सार्वधातुक अपृक्तसंज्ञक प्रत्ययः अस्ति अडागमः भवति गार्ग्य गालवयोः इति ऋषौ मतेन मतेन ऋषयोः अस्वप् योग अड् योग तकारस्य अलञ्चं तस्य लोपः इति सूत्रेण लोपः भवति अस्वप् योग आ योग त अस्वपत् अस्वपीत् अस्वपत् इति द्वे रूपाणि अपरः तात् तात् अस्वप् योग तात्
तात् नास्ति खलु तत्र इदानीं तत्र तां लङ्लकारे खलु
वलादिप्रत्ययः अस्ति इडागमः भवति अस्वपितां
केन सूत्रे इडागमः पुनः केवलम्
इडागमः तु सार्वधातुके इति सूत्रेण
न तु रुदादिभ्यः पञ्चभ्यः इति सूत्रेण सम्यक्
अस्वपितां बहु अन् अपि तस्य अस्वप् योगान् अस्वपन्
सम्यक्
मध्यमपुरुषे एकवचने स् अत्वप् योगस् हलादि
एकाल अस्ति वा अपृक्त एकाल
अपृक्त
पित अस्ति परन्तु किमपि गुणः
हलादि पित् अस्ति अपृक्तस्य सार्वधातुकस्य ईडागमो भवति रुदस्य पञ्चभ्यः इति सूत्रेण
सम्यक्
अस्व
ईडागमः
ईडागमः अस्वप् योग ई योग स् अस्वपीस् अस्वपि सकारस्य तसदुषोः रुः इति सूत्रेण अस्वपि रुः अस्वपि रु अनन्तरम् उकारस्य लोपः उकारस्य लोपः प्रकारस्य खरवसानयोः विसर्जनीयः इति सूत्रेण विसर्गः भवति
अन्यद्रूपमस्ति वा सकारः कीदृशः अस्ति अत्र रूपद्वयमपि भवितुमर्हति खलु सकारः इति अपृक्त अस्ति अतः अन्य ऋषीणां मतेन तत्र
पितः हलादि सार्वधातुकः अस्वप् योग अट् योग स् अस्व अस्वपस् अस्वपः अस्वपः इति भवति
अस्वपः इति अट् गालवयोः इत्यनेन अस्वपः
अट् गार्ग्य गालवयोः अस्वपः इति सूत्रेण
अग्रे
तदनन्तरं वलादि अस्ति अपित् अस्ति इडागमः भवति अस्वपितं तथैव अस्वपित उत्तमपुरुषे अं सार्वधातुकं पित् अस्ति अतः इडागमः भवति अस्वपि नो नो अजादि इडागमः न भवति अस्वप्योग अम् अस्वपम् सम्यक् आचार्य
आमाम् अस्वपम् इति सम्यक् अस्वपम् इडागमः नास्ति केवलम्
आम्
अस्वपम्
वलादि अपित् अतः अस्वपिव अस्वपिव अस्वपिन
सम्यक् तर्हि अस्वपत् अस्वपीत्
अस्वपिताम् अस्वपन् अस्वपन् अस्वपीः अस्वपितम् अस्वपित अस्वपम् अस्वपिव अस्वपिम
सम्यक् उत्तमं धन्यवादः महोदय लङ्गलकारे
लङ्गलकार अभवत् खलु विधिलिङ्ग
सारि विधिलिङ्ग् क्षम्यतां विधिलिङ्ग
विधिलिङ्ग यात् यातां युः याः यातां यातं याता सर्वत्र यकारः अस्ति अतः वल् प्रत्याहारे नास्ति इडागमः न भवति स्वप् इत्यत्र इक्वर्णः अपि अस्ति हलन्तदातु इक्वर्णः अपि नास्ति उपादायं किमपि कार्यं नास्ति केवलं वर्णमेलनं स्वप् योगे यात् स्वप्यात् स्वप्यातां स्वप्युः स्वप्याः स्वप्यातं स्वप्यात स्वप्यां स्वप्याव स्वप्याम
धन्यवादः भगिनि निरञ्जन भगिनी अग्रे श्वस् दातु
सकारान्तः श्वस् श्वस् प्रतिपदि प्राणने अनुकार्यम् उपधायां ह्रस्वकारः लघु इति गुणकार्यं नास्ति. वलादिप्रत्यये परे ईडागमः भवति. अपि च लकारे अपृक्तसन्निके प्रत्ययेषु ईडागमश्च अडागमश्च भवतः. सन्धिकार्यं वलादिप्रत्ययेषु ईडागमः भवति. अतः हल् सन्धेः अवसरो न कुत्रापि भवति. चतुर्षु लकारेषु दिगन्तरूपाणि वक्तव्यानि. लट् लकारे वदामि वा महोदय? परस्मैपदि लट् लकारे प्रथमपुरुषे एकवचने ति हलादिपितस्ति श्वस्योगति ऋदादिभ्यः सारदृत्तिके इति ईडागमः भवति. श्वसि इति भवति द्विवचने. श्वस्योगतः हलादि अपि तस्ति ऋदादिभ्यः सारदृत्तिके इति ईडागमः भवति. श्वसितः भवति. बहुवचने अन्ति अजादि अपि तस्ति
किञ्चित् मन्दं श्रूयते.
श्रूयते वा? इदानीं श्रूयते. श्वस्योग प्रथमपुरुषबहुवचने अजादि अपि तस्ति. श्वस्योग अस्ति. तत्र किमपि कार्यं नास्ति. श्वसन्ति इति रूपं भवति. मध्यमपुरुषे एकवचने अस्ति. हलादिपि तस्ति. श्वस्योगसि ऋदादिभ्यः सार्वधृतके इत्यनेन ईडागमः भवति. श्वस्योग इयोगसि सि तत्र आदेशप्रत्यये सकारस्य षकारः भवति. श्वसिषि श्वसिषि भवति. द्विवचने श्वस्योगतः हलादि अपि अस्ति. ऋदादिभ्यः सार्वधृतके इत्यनेन ईडागमः भवति. श्वसितः भवति. तथैव बहुवचने श्वसितः भवति. उत्तमपुरुषे एकवचने श्वस्योगमि तत्र सार्वदत्तके अनादिपि अस्ति. ईडागमः भवति. श्वस्योगयोगमि श्वसि द्विवचने श्वस्योग वहा ऋदादिभ्यः सार्वदत्तके इत्यनेन श्वस्योग इ योगवः श्वसि वहा श्वसि महा भवति. श्वसि इति श्वसितः श्वसन्ति. श्वसिषि श्वसितः श्वसितः श्वसिनि श्वसिवः श्वसिमः.
सम्यक् उत्तमं. धन्यवादः. अग्रे इदानीं शङ्करप्रसाद् महोदय अग्रे इदानीं तत्र लोट् लकारे
धातुः लोट् लकारः तु तात् ताम् अन्तु स्वस्योग तु पित् अस्ति.
गुणः किमपि नास्ति.
रुदादिभ्यः सार्वधातुके इति सूत्रेण इडागमः भवति. स्वसितु इति भवति. अपित् अस्ति. वलादि अतः इडागमः भवति. स्वसितात् ताम् रुदादिभ्यः सार्वधातुके इति सूत्रेण इडागमः. स्वसिताम्
न श्रूयते महोदय. स्वसितां
मध्यमपुरुषे स्वसन्तु. मध्यमपुरुषे एकवचने ई तात् तम् ता. त्वस् योग हि अपित् अस्ति.
न श्रूयते महोदय. मध्ये मध्ये
अपित् स्वस् योग इ योग इ त्वसिः तात् हृदादिभ्य अपित् अस्ति. हृदादिभ्यः सार्वधातुके वलादि. स्वस् इडागमस्य योग इ योग तात् स्वसितात् तं तथैव इडागमः. स्वसितं ता स्वसिता. उत्तमपुरुषे हानि इत्यादि पित् अस्ति किन्तु गुणः न सम्भवति. स्वसानि स्वसाव स्वसाम
शसानि शसाव शसाम इत्यत्र नकारः न भवति किमर्थं नत्वं नत्वस्य निमित्तं नास्ति शसानि एव धन्यवादः उमा भगिनि अग्रे लङ्
लङ्कारे अडागमः भवति श्वस् अश्वस् भवति सकारः अस्ति अपृक्तकारः अतः रुदश्च पञ्चभ्यः इति सूत्रेण ईत् आगमः भवति ईत् अश्वसीत् अश्वस् ईत् अश्वसीत् अपि च अड् गार्ग्यगालवयोः इति अत् आगमः अपि भवति अश्वस् अत् अश्वसत् अश्वसीत् अश्वसत् रूपद्वयं ताम् इत्यत्र सामान्यसूत्रं रुदादिभ्यः सार्वधातुके इति इडागमः इताम् अश्वस् इताम् अश्वसिताम् अश्वस् योगे अन् अस्ति अजादि वलादि नास्ति इडागमः नास्ति अश्वसन् तदनन्तरम् अपृक्त सकारः अस्ति अश्व अश्व अपृक्त
सकारः खलु अपृक्तः अस्ति खलु अपृक्तः
अपृक्तसकारः अस्ति अतः प्रत्ययः ईस् भवति अश्व अश्वसीत् भवति सकारस्य ऋत्वविसर्ग ऋत्वविसर्गो विसर्गः भवति अश्वसीः इति भवति अनन्तरं रूपम् अडागमरूपम् अश्व अश्वस् अश्वसः अश्वस् अह अश्वसः भवति द्विवचने सामान्यसूत्रम् इडागमः इतं भवति अश्वस् इतम् अश्वसितम् इत सामान्यसूत्रं त अस्ति इडागमः इत अश्वसित अश्वसित अनन्तरम् अं व म अस्ति अम् इति वलादि अश्व
वलादि वा
अम् अजादि अजादि वलादि नास्ति वलादि नास्ति अजादि अम् अजादि वलादि नास्ति इडागमः अपि नास्ति अश्वस् अम् अश्वसम् वलादिप्रत्ययः अतः इडागमः सामान्यसूत्रेण इव अश्वस् इव अश्वसिव मा अपि सामान्यसूत्रं वलादि इडागमः इम अश्वस् इम अश्वसिम अश्वसीत् अश्वसत् अश्वसिताम् अश्वसन् अश्वसीः अश्वसीस् अस्ति अतः अश्वसीः अश्वसः अश्वसितम् अश्वसित अश्वसम् अश्वसिव अश्वसिम
सम्यक् उत्तमं धन्यवादः विधिलिङ्ग् निरञ्जन भगिनी विधिलिङ्ग् केवलं रूपाणि न श्रूयते किञ्चित्
श्रूयते वा
इदानीं
श्रूयते सर्वे प्रकार प्रत्ययः वलादि तत्र इदानीं न भवति
सन्धि अपि न भवति
श्वस्योगया श्वस्यात् श्वस्यात् श्वस्याः श्वस्यात् श्वस्यात् श्वस्यां श्वस्याव श्वस्याम्
सम्यक् अग्रे अन् इति धातुः अस्ति केवलं तत्र रूपाणि एव वदन्तु तत्र भवती एव वदतु लट्लकारे अन् इति धातुः तत्र रुदादिभ्य सर्वधातुके इत्यनेन तत्र भवति खलु तत्र अन् इति रूपं लट्लकाररूपं वदतु अन् इति अस्ति
केवलं रूपाणि
अनिति अनिति अनिति
अनिति अनिति अन्योग इयोगति अनिति अन्योग इयोगतः अनितः अन्योग तत्र ईडागमः न भवति आचार्ये अपि अस्ति अतः अनन्ति भवति अनन्ति अनन्तरं मध्यमपुरुषे अन्योगसि आदिपित् अस्ति ईडागमः भवति अन्योगि योगसि तत्र आदेशप्रत्ययोजनेन अनिशि भवति अनन्तरं था अन्योग इयोगथा ईडागमः भवति अनादि अपि अस्ति अनिथा भवति बहुवचने अनिथ भवति उक्तं पुरुषे अन्योग इयोगमि आदादिपित् अस्ति इत्यनेन ईडागमः अनिमि भवति वः तत्र अन्योग इयोगवः अनिवः अन्योग इयोगमः अनिमः अनिति अनितः अनन्ति अनिशि अनितः अनितः अनिवि अनिवः अनितः
सम्यक् उक्तवान् धन्यवादः अग्रे इदानीं सङ्गपस्य महोदय अग्रे लोट्लकारे अन् दातो रूपाणि एव
लोट्लकारे अन्न योग तु
झट् इति वदतु तत्र सूत्रं मनसि निधाय यथाभ्यासः एतदपि अभ्यासः अस्ति दृष्ट्वा मनसि भवेत् अस्माकं रूपं किम् अस्ति अनित् धातुहृदादिभ्य अनितु
अग्रे अनितु अनितात् अनिताम् अनन्तु अनिः
सम्यक्
अनिता अनितात् अनितम् अनिता अनानि अनाव अनाम
सम्यक् उत्तमं धन्यवादः महोदय अग्रे लङ्लकारे भवति इदानीं वदतु भगिनि लङ्लकारे किञ्चित् विशिष्टमस्ति तत्र आट् इति भवति
अन् अस्ति आटागमः आडजातीनाम् आट् आटस्य वृद्धिः अतः आन् इति अङ्गम्
अनन्तरं रूपाणि वदतु केवलं रूपाणि
योगे पृष्टमस्ति आनीत् आनीत् अस्ति आनत् अस्ति
सम्यक्
आनीताम्
सम्यक्
आनन्
सम्यक्
आनीः अस्तु आनः
सम्यक्
अस्ति आनीतम् आनीत आनम् अम् अस्ति आनम् अत्र इदानीं भवति आनिव आनिम
सम्यक् आनीत् आनत् आनितम् आनिताम् आनन् आनीः आनः आनितम् आनित आनम् इति खलु आनिव आनिम इति सम्यक् तदेव अपि अस्ति तत्र अग्रे भगिनी निरजला भगिनी विद्युत्
अन्यात् अन्याताम् अन्युः अन्याः अन्यातम् अन्यात् अन्याम अन्याव अन्याम
सम्यक् उत्तमं भगिनि अग्रे भवती एव पठतु तत्र अग्रे अग्रिमः तत्र किमस्ति वयं
जक्षधातुः
तत्रापि जक्षधातुः अस्ति तदपि अस्ति परन्तु इतोपि विशिष्टकार्यमस्ति तत्र तत्र किमस्ति लङ्लकारे किञ्चित् कार्यमस्ति खलु
श्रूयते वा महोदय
श्रूयते श्रूयते
जक्षित्यादीनां धातूनाम् अभ्यस्तसंज्ञा भवति अदादिगणे एकः अन्तर्गणः वर्तते यस्मिन् सप्तधातवः सन्ति जक्ष् जागृ दरिद्रा चकास् शास् दीधीङ् वेदीं च इति शब्देन जक्षधातोः परामर्शः इति आदिः येषान्ते इत्यादयः बहुव्रीहिः जक्षप्रथमान्तम् इत्यादयः प्रथमान्तं षट् प्रथमान्तं त्रिपदमिदं सूत्रम् उभय अभ्यस्तम् इत्यस्मात् अभ्यस्तमित्यस्य निवृत्तिः अनुवृत्तिसहितसूत्रं जक्षित्यादयः षट् अभ्यस्तम् जक्षित्यादिगणे जक्षित् एकान्तर्गणः अस्ति तत्र सप्तधातवः सन्ति यक्षित्यादि तेषाम् अभ्यस्यतिर्णा भवति
दक्षित् इति इति तद् अपि योजयित्वा षट् दातवः सप्तदातवः शब्दं दक्षित् षट् इत्युक्ते सप्तदातवः दक्षित् अपि अन्ये षट् दातवः सो अत्र आहत्य सप्तदातवः सन्ति सर्वे च जक्ष् इति अस्ति अत्र एकालस्ति जागृ दरिद्रा चकार शास् अत्र आमां सत्यम् अत्र तत्र अनेकाः सन्ति खलु तत्र अनेक अनेकाच एका जक्ष्येव एकाच अस्ति अन्ये अनेकाचः अस्तु अभ्यस्तसंज्ञका अभ्यस्तस्य किं भवति अभ्यस्तः अस्ति चेत् तत्र द्युत्तं कार्यं भवति इदानीं तत्र जुहोत्यादिगणे उभयं तत्र किम् अस्ति जुहत् श्लू इति खलु अत्र तत्र द्वित्तं भवति परन्तु द्वित्तकार्यं नास्ति केवलं साक्षात् अभ्यस्त तत्र अभ्यस्तसंज्ञकः भवति अभ्यस्तसंज्ञकाः भवन्ति तर्हि अभ्यस्तसंज्ञकेन तत् अभ्यस्तसंज्ञक संज्ञा भवति चेत् कानि कार्याणि भवन्ति इति अग्रे दत्तमस्ति अग्रे अभ्यस्त इत्युक्ते किम् इति अग्रे दत्तं पठतु
सूत्रेण यदा धातोः द्वित्वं भवति तदा मिलित्वा द्वयोः भावयोः नाम अभ्यस्तम् इति भवति जक्षित्यादयः षड् इत्यनेन जक्षित्यादीनां धातूनाम् अद्वित्वे सत्यपि अभ्यस्तसंज्ञा भवति तत्र सूत्रेण द्वयोः भावयोः अभ्यस्तसंज्ञा इति भवति यद्यपि द्वित्वं न भवेत् तदापि
अत्र दा इति धातुः अस्ति ददा इति भव दादा इति भवति चेत् प्रथमद्वित्तस्य अभ्याससंज्ञा मिलित्वा अभ्यस्तसंज्ञा भवति तत्र कानि कार्याणि भवन्ति अतः ददस्व भवति ददा इति भवति ददा इत्यस्य अभ्यस्तसंज्ञा भवति इदानीं तत्र द्वित्तं नास्ति तथापि तस्य साक्षात् तत्र अभ्यस्त संज्ञा भवति अस्मिन् धातोः तत्र तस्य लाभः कः तस्य कारणं किमर्थं तत्र दत्तमस्ति इति तत्र कार्यम् अस्ति तत्र अत्र कार्यं किम् इति अग्रे
येषां सप्तानां धातूनां तिगन्तसिद्ध्यर्थं विशिष्टे द्वे कार्ये प्रथमस्ति अदभ्यस्ता 714 अभ्यस्तसंज्ञकधातुः उत्तरस्य प्रत्ययस्य आदिमवयवस्य झकारस्य स्थाने अत् आदेशः भवति अत् प्रथमान्तम् अभ्यस्तात् पञ्चमन्तं द्विपदन्तं सूत्रं झोन्तः इत्यस्मात् झः इत्यस्य आयनेयिनीयः हढ घ ख छ गां प्रत्यादीनाम् इत्यस्मात् वचनपरिमाणपरिणामं कृत्वा प्रत्ययादेः इत्यस्य निवृत्तिः अनुवृत्तिसहितसूत्रम् अभ्यस्तात् अङ्गात् प्रत्यादेः झः अत् अत्र झकारस्थाने अत् आदेशः भवति अत्र यत्र यत्र अन्तु अस्ति तत्र अतु अन्ति अस्ति अति भवति वा महोदय
आमां सत्यं सर्वत्र अति एव आदेशः भवति तत्र
ध्येयं यत् अत् आदेशस्य तकारः हलन्त्यम् इति सूत्रेण इत्संज्ञकः न यतोहि अत् तु विभक्तिसंज्ञकः झि प्रत्ययस्य अवयवस्य आदेशः अतः न विभक्तौ तु स्मः इत्यनेन हलन्त्यं बाधितम् अदभ्यस्तात् इति सूत्रेण लटि लोटि च प्रथमपुरुषस्य बहुवचने ध्वस्थाने अत् आदेशः अतः लटि झि अति न तु अन्ति लोटि झि अतु न तु अन्तु इति भवति द्वितीयकारमस्ति सिज्भ्यस्य विधिभ्यश्च इत्यनेन नित्लकारस्य अवस्थायां सिच् प्रत्ययात् अभ्यस्तसंज्ञकात् धातोः विद्धातोः च परस्य झि प्रत्ययस्य स्थाने जुस् आदेशः भवति सिच्च अभ्यस्यस्य विधिश्च तेषाम् इतरेतरद्वन्द्वः सिजभ्यस्य विधयः तेभ्यः सिजभ्यस्य विधिभ्यः सिजभ्यस्य विधिभ्यः पञ्चमन्तं च अव्ययपदं द्विपदमिदं सूत्रं नित्यं मितः इत्यस्मात् मितः इत्यस्य निवृत्तिः झेर्जुस् इत्यस्मात् झेः जुस् इत्यनयोः निवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं सिद्धभ्यस्य विधिभ्यः च मितः लस्य झेः जुस् अनेन लङ्गि अभ्यस्तसंज्ञकधातोः परस्य झि स्थाने जुस् आदेशः जुस् इत्यस्य अनुबन्धलोपे ऋत्वविसर्गौ ऊः इति भवति तर्हि आहत्य अभ्यासज्ञकधातुः अस्ति चेत् लङि अनुस्थाने ऊ इति प्रत्ययः भवति. सिजभ्यस्य विधिभ्यश्चैतन्येन लङ्लकारे प्रथमपुरुषे प्रथमपुरुषे बहुवचने ऊः इति आदेशः भवति अनुस्थाने.
तत्र जे जुसि विधिङ्लकारे भवति तद् उसि इति आदेशः भवति, जुस् इति आदेशः भवति, परन्तु अत्र लगि अपि भवति. तत्र सिजभ्यस्य विधिभ्यस्य सिच् इत्यस्य अपि च सिच् प्रत्ययात् तत् सिच् इति तत्र लुङ्लकारे सिच् इति प्रत्ययः भवति तत्र भवति इदानीं तत्र. अपि च जुहोत्यादिगणे भवति विद् धातोः विदुः इति भवति अत्र विद् धातोः भवति. अपि च अभ्यस्तसंज्ञकस्य क्षम्यता अभ्यस्तसंज्ञकस्य विद् धातोः अपि च सिच् प्रत्ययस्य अपि सिच् इत्युक्ते तत्र लुङ्लकारे जुस् आदेशः भवति इति अस्ति. तर्हि तत्र न तु अन् तत् परन्तु उः इति भवति. तर्हि ऊः इति भवति. तर्हि तत्र किं भवति अजक्षुः इति तादृशः भवति. अजक्षुः इति भवति अजक्षन् इति न भवति. अजक्षन् इति न भवति. अन्यत्र सर्वत्र यथा सामान्यमस्ति ऋदादिभ्यः सर्वधातुक इत्यनेन इडागमः भवति ईटागमः तानि सर्वाणि भवन्ति. एतदपि अस्ति केवलम् अस्य संज्ञायाः तत्र फलं किम् अस्ति इत्युक्ते अत्र उस् आदेशः अस्ति अपि च अत् आदेशः. अत् आदेशः यत्र अन्ति इत्वन्तः इत्यस्य प्रबाद्य अत् अपि च लङ्लकारे उः इति तावदेव तावदेव अस्ति तत्र. तर्हि अन्यानि सर्वाणि कार्याणि यथा यत् वयं दृष्टवन्तः हा अरुदादिपसारधातुक इत्यनेन तत्र अङ्गस्य गुणः अपि नास्ति अतः तद् किमपि नास्ति. अतः तावदेव एक कार्यद्वयमेव अस्ति. अस्तु अग्रे धन्यवादः भगिनि. हा तत्र इदानीं महोदय पठति वा शङ्कवस्तु महोदय किम् अस्ति इति
नाम अनेन अभ्यस्तसंज्ञकधातोः परस्पर तर्हि आहत्य अभ्यस्तसंज्ञकधातुः अस्ति चेत् लङि अन् स्थाने उः इति प्रत्ययः भवति. एषु सप्तसु चक्षादि अन्तर्गणीयेषु धातुषु दरिद्र इत्येषां रूपाणि अस्माभिः साधितानि अदादिगणस्य अजन्तानां पाठे. त्रयः च हलन्तः जक्ष् चकास् शास् तेषां रूपाणि अधुना साधितानि. सकार
मध्ये 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 मध्ये
जट् कृतः
न कृतः अस्माभिः तदेव अस्ति. तस्य का किम् अस्ति इति एकं जक्ष् धातुः न कृतमस्ति तदेव अस्ति. हा तदेव अस्ति तत्र तस्य एव इदानीम् अग्रे करणीयानि रुदादिभ्यः सार्धातुक इत्यनेन तत्र पञ्चधातवः सन्ति तत्र जक्ष् अपि अस्ति. इतोपि जक्ष् इत्यस्य कार्यमस्ति तत्र उः इति आदेशः भवति अति इति आदेशः भवति. तत्र किमर्थम् इत्युक्ते जक्षिद्धात् षट् इत्यनेन अत्र अभ्यर्थसंज्ञकाः भवन्ति इति एकम् अधिकसूत्रमस्ति. जक्षत्रादिभ्य जक्षिद्धातोः कृते एव तत्र किमर्थं तत्र विशिष्टकार्यम् इत्युक्ते तत् अभ्यस्त संज्ञकः भवति तत्र. अतः तत्र विशिष्टकार्यमस्ति यत् यानि कार्याणि सन्ति वयं कृतवन्तः तत्र रुदादिभ्यः सार्धातुक इति तत्र तानि तानि सर्वाणि सन्ति. अपि च एतदपि अस्ति किमर्थम् अत्र प्रत्ययादेशः अस्ति अत् इति भवति उः इति भवति तावदेव भेदः कोऽपि अन्य किमपि नास्ति अन्यत् समानमेव अस्ति. अग्रे
जक्ष् धातुः रुदाद्यन्तर्गणो अपि अस्ति जक्षादि अन्तर्गणे अपि अस्ति. अतः देयं यत् अत्र द्वयोः अन्तर्गणयोः कार्यं भवति अङ्गकार्यम् उपधातां ककार लघु इति ककारः अस्ति निरागमो भवति अपि च लङ्लकारे अपृक्तसंज्ञकप्रत्ययेषु ईडागमश्च हडागमश्च भवतः सन्धिकार्यं बलादिप्रत्ययेषु अतः अल्सन्धेः अवसरो न कुत्रापि भवति अग्रे चतुर्षु लकारेषु दिगन्तरूपाणि वक्तव्यानि उपरि दत्तानां नियमानाम् आधारेण रूपचिन्तनं करो धातुः लट् लकारः
अस्तु अत्र स्थगयामः अग्रिमकक्षायां पुनः एकवारं दृष्ट्वा समयः किमपि अन्यकार्यं नास्ति अत्र केवलं तत्र लङ्लकारे प्रत्यादेशः भवति अपि च बहुवचने तत्र किमपि अत आदेशः भवति अन्यानि सर्वाणि कार्याणि समानमेव अस्ति अतः चक्ष इति अप्रसन्यक इति कृत्वा अन्यथा किम् अपि च तत्र किं भवति सकार अस्ति स्कोः संयोगान्ते इति सूत्रस्य कार्यं भवितुमर्हति परन्तु ईडागमः भवति अथवा ईटागः भवति इति कृत्वा कुत्रापि तस्य न भवति खलु अन्यथा किं भवति जक्ष् इति ककार सकार अस्ति स्कोः इति भवितुमर्हति स्म वयं जानीमः तत्र पूर्वं दृष्टवन्तः परन्तु न भवति अत्र जक्षिति भवति जक्षिति भवति जक्षिति जक्षितः जक्ष तत्र जक्षत इति भवति जक्षन्ति न भवति जक्षत इति भवति अत् खलु अन्ति न अन्य आदेशः न भवति इति तावदेव इडागमः भवति लङ्लकारे अपि ईटागमः भवति अपि च आट् गार्ग गालव इत्यनेन आटागमः अपि भवति सामान्यकार्यमस्ति अग्रिमकक्षायां कुर्मः अस्तु अत्रैव स्थगयामः सर्वे भवन्तः सुखिनः सर्वे सन्ति रामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् कृपा भवेत् ॐ शान्तिश्शान्तिश्शान्ति धन्यवादः
धन्यवादः आचार्य
धन्यवादः धन्यवादः